ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्ठुप् छन्दः चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम् दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यचिदाख्यातम् तन्मे ब्रूहि पितामह ब्रह्मोवाच अस्ति गुह्यतमम् विप्र सर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् तच्छृणुष्व महामुने प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणी तृतीयम् चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् पञ्चमम् स्कन्दमादेति षष्ठम् कात्यायनीति च सप्तमम् कालरात्रीति महागौरीति चाष्टमम् नवमम् सिद्धिदात्री च नव दुर्गा प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ता शरणम् गताः न तेषाम् जायते किञ्चित् अशुभम् रणसङ्कटे नापदम् तस्य पश्यामि शोकदुःखभयम् नहि यैस्तु भक्त्या स्मृता नूनम् तेषाम् वृद्धि प्रजायते ये त्वाम् स्मरन्ति देवेशि रक्षसे तान्न संशयः प्रेतसंस्था तु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारूढ वैष्णवी गरुडासना माहेश्वरी वृषारूढा कौमारी शिखिवाहना लक्ष्मी पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंस समारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वाः सर्वयोग समन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमारूढा देव्य क्रोध समाकुलाः शङ्खम् चक्रम् गदाम् शक्तिम् खलम् च मुसलायुधम् खेटकम् तोमरम् चैव परशुम् पाशमेव च कुन्तायुधम् त्रिशूलम् च शार्गमायुधमुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानीतम् देवानाम् च हिताय वै नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनि त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भयवर्धिनि प्राच्याम् रक्षतु मामैन्द्री आग्नेयामग्निदेवता दक्षिणेव तु वाराहि नैऋत्याम् खड्गधारिणि प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृगवाहिनी उदीच्याम् पातु कौमारी ऐशान्याम् शूलधारिणी ऊर्ध्वम् ब्रह्माणि मे रक्षेत् अधस्ताद्वैष्णवी तथा एवम् दश दिशो रक्षेत् चामुण्डा शववाहना जया मे चाग्रतः पातु विजया पातु पृष्ठतः अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनी रक्षेत् उमामूर्ध्नि व्यवस्थिता मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्डा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी नासिकायाम् सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकला जिह्वायाम् च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकाम् चित्रघण्टा च महामाया च तालुके कामाक्षी चिबुकम् रक्षेत् वाचम् मे सर्वमङ्गला ग्रीवायाम् भद्रकाली च पृष्ठवंशेदनुर्धरी नीलग्रीवा बहिःकण्ठे नलिकाम् नलकूबरी स्कन्दयो खड्गिनी रक्षेत् बाहू मे वज्रधारिणी हस्तयोर्दण्डिनी रक्षेत् अम्बिका चाङ्गुलीषु च नखांशूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी हृदये ललिता देवी उदरे शूलधारिणी नाभौ च कामिनी रक्षेत् गुह्यम् गुह्येश्वरी तथा पूतना कामिका मेढ्रम् बुदे महिषवाहिनी कट्याम् भगवती रक्षेत् जानुनी विन्ध्यवासिनी जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनी गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी पादाङ्गुलीषु श्रीरक्षेत् पादाधस्थलवासिनी नखान्दंष्ट्राकराली च केशाञ्चैर्वोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचम् वागीश्वरी तथा रक्तमज्जावसा मांसानि अस्ति मेदांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तम् च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चूडामणिस्तथा ज्वालामुखी नखज्वालाम् अभेद्या सर्वसन्धिषु शुक्रम् ब्रह्माणि मे रक्षेत् छायाम् छत्रेश्वरी तथा अहङ्कारम् मनोबुद्धिम् रक्षेन्मे धर्मधारिणी प्राणापानौ तथा व्यानम् उदानम् च समानकम् वज्रहस्ता च मे रक्षेत् प्राणम् कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वम् रजस्तमश्चैव रक्षेन्नारायणी सदा आयु रक्षतु वाराही धर्मम् रक्षतु वैष्णवी यशकीर्तिम् च लक्ष्मीम् च धनम् विद्याम् च चक्रिणी गोत्रमिन्द्राणि मे रक्षेत् पशून्मे रक्षतु चण्डिके पन्थानम् सुपथा रक्षेत् मार्गम् क्षेमथा राजद्वारे महालक्ष्मी विजया सर्वतस्थिता रक्षाहीनम् तु यत्स्थानम् वर्जितम् कवचेन तु तत्सर्वम् रक्ष मे देवि जयन्ती पापनाशिनी पदमेकम् न गच्छेत्तु यदिच्छेच्छुभमात्मनः कवचेनावृतो नित्यम् यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् परमै